इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य रूसदेशस्य कजाननगरे ब्रिक्स इति शिखरसम्मेलनावधौ चीनदेशीयेन राष्ट्रपतिना शी जिनपिंग इत्यमुना साकं द्विपक्षीय संवादं करिष्यति। उपवेशनमिदं वास्तविक नियन्त्रण रेखायाः प्रहरित्वप्रबन्धनम् आधृत्य चीन भारत देशयोर्मध्ये संजात निर्णयस्य अनन्तरं महत्वपूर्णम् अस्ति इति। प्रधानमन्त्रिणः श्रीमोदिनः चीनदेशस्य राष्ट्रपतेः मध्ये एतद् उपवेशनं विगतेषु पञ्चवर्षेषु प्रथमं सुनियोजितं उपवेशनं भविष्यति। श्रीमोदी एतदनन्तरं सत्राणि ब्रिक्स सम्बद्ध सत्राणि सम्बोधयिष्यति। तदनु रूस ईरान देशयोः राष्ट्रपतिभ्यां सह द्विपक्षीय वार्ताः करिष्यति। ह्यः श्रीपुतिनेन साकं जाते उपवेशने श्रीमोदी सबलं प्रतिपादितवान् यत् भारतं रूस युक्रेन देशयोः संघर्षस्य शान्तिपूर्ण समाधानाय साहाय्यं दास्यति। विदेश सचिवः विक्रम मिश्री इत्येषः वार्ताहरान् सम्बोधितवान् यत् श्रीमोदिना राष्ट्रपतिना श्रीपुतिन इत्यनेन साकं जातस्य संवादस्य विषये सूचना प्रदत्ता। प्रवर्तन निदेशालयेन सीम्नि मादक द्रव्य पदार्थानां अवैध आदान प्रदान प्रक्रियया सम्बद्धस्य धनशोधन निवारण अधिनियमस्य अनन्तर्गतं निरीक्षणस्य प्रकरणे षड् जनाः निगडिताः। निदेशालयेन मुम्बई नगरस्य न्हावा शेव जलपोतस्थानकस्य आगतात् संग्रहणात् 390 किलोग्राममितं यावत् हिरोइन इति मादकद्रव्याणि गृहीतानि। भारत पाकिस्तान देशौ श्री करतारपुर साहिब वीथेः सहभागितायाः वैधतायाः पञ्चवर्षाणाम् अवधिं संवर्धयितुं सहमतौ जातौ। करतारपुर साहिब वीथेः माध्यमेन भारतदेशतः पाकिस्तानस्य गुरुद्वारा दरबार साहिब इत्यत्र यावत् तीर्थयात्रिणां यात्रा सौकर्यार्थं 19,200 अक्टूबर मासस्य 24 दिनांके सहभागिता ज्ञापनपत्रे हस्ताक्षरं जातमासीत् यद्धि पञ्चवर्षाणां अवधिं यावत् वैधमासीत्। सिंगापुरस्य रक्षामन्त्री डॉ एन जी इंग हेन इत्येषः ह्यः राष्ट्रपतिभवने राष्ट्रपतिना द्रौपदी मुर्मू इत्यनया साकं मन्त्रणां कृतवान्। अत्रावसरे राष्ट्रपतिः कथितवती यत् भारत सिंगापुर देशयोर्मध्ये द्विपक्षीय सहयोगस्य समृद्धम् इतिवृत्तम् अस्ति। राष्ट्रपतिः अग्रे प्रोक्तवती यत् प्रधानमन्त्रिणः श्रीमोदिनः साम्प्रतिके एव समये निष्पन्नायाः सिंगापुर यात्रायाः अपि च सिंगापुर भारतयोर्मध्ये मन्त्रिस्तरीय वर्तुलाकार उपवेशनस्य अनन्तरं अयं सम्बन्धः इतोपि सुदृढो जातः येन हि उभौ देशौ व्यापक रणनीतिक सहभागितायाः स्तरं संवर्धितवन्तौ। अस्य वर्षस्य भारतीय अन्ताराष्ट्रिय चलच्चित्र महोत्सवाय प्रतिनिधि पञ्जीकरणं समारब्धम्। 55वां अयं चलच्चित्र महोत्सवः नवम्बर मासस्य 20 दिनांकात् 28 दिनांकं यावत् गोवा नगरे आयोजयिष्यते। चलचित्र प्रेमिणः my.iffigoa.org इत्यत्र पञ्जीयनं कारयितुं शक्नुवन्ति। बंगोपसागरीय क्षेत्रे समागते सागरीय झंझावातः दाना इत्याख्य उग्रतां भजते। अस्मिन् गुरुवासरे शुक्रवासरयोः रात्रौ ओडिशातरं प्रति प्रापणाय झंझावातोऽयम् अग्रसरः अस्ति। अपि च क्रिकेट प्रतिस्पर्धायां भारत न्यूजीलैंड देशयोर्मध्ये द्वितीया क्रिकेट निकषस्पर्धा श्वः पुणे नगरस्य महाराष्ट्र क्रिकेट संघ क्रीडांगणे प्रातः 9:30 भविष्यति इति वार्ताः।